मुक्तापी तपयोदमौक्तिकजपावर्णैर्मुखै पञ्चभि स्त्रक्षैरञ्जितमीशमिन्दुमुकुटम् पूर्णेन्दुकोटिप्रभम् शूलम् टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान् पाशम् भीतिहरम् दधानममिताकल्पोज्ज्वलम् चिन्तयेत्।